एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति निरोग नेपाल निर्माणाभियाने नेपालस्य मौलिक चिकित्सा प्रणाल्याः आयुर्वेदस्य असाधारण भूमिका भवति। प्रधानमन्त्री निवासे बालवाटार स्थाने गतसायम् आयुर्वेद क्षेत्रस्य विज्ञैः आयोजिते विमर्शने असौ कोविड 19 निरोधनोपचार नियन्त्रणेषु आयुर्वेदस्यापि महत्वपूर्णा भूमिका भवतीति कारणात् अस्मै प्राथमिकता प्रदीयते इति समस्पष्टयत। आयुर्वेदस्य उपेक्षाकारिणीं प्रवृत्तिं निराकर्तुमेव सर्वकारेण योग माया विश्वविद्यालय स्थापित इति ज्ञापयन् असौ अभाषत। एतस्य माध्यमेन भविष्यति समग्र विश्वस्य ध्यानं समाकृष्य आयुर्वेदस्य योगस्य च विकासस्य लक्ष्यं निर्धारितं वर्तते। प्रधानमन्त्री ओली कोरोना विषाणोः नियन्त्रणाय आयुर्वेदं न केवलं प्रयोक्तुं परं प्रयोगं वर्धयितुं च सर्वेषां ध्यानम् आकर्षयत। प्रधानमन्त्री ओली आयुर्वेदस्य माध्यमेन सम्प्रति विधीयमानस्य उपचारस्य कार्यम् उपयोगिनं गार्हस्थ विधिं च सम्मानयितुं संचार माध्यमैः एतेषां व्यापक प्रचार प्रसार विधातुं च अन्वरुणत। प्रधानमन्त्री केपी शर्मा ओली कथयति तेजाव प्रज्वलनशील तरल पदार्थस्य प्रहारकान् जनान् अमान्यवीयस्य जघन्यस्य च अपराधस्य कार्याय दण्डयितुम् अध्यादेशस्य माध्यमेन तत्कालं नवीन विधि निर्मास्यते। प्रधानमन्त्री निवासे बालवाटार स्थाने ह्यो विधि न्याय संसदीय विषय मन्त्री एणा पीड़ित जनानां च सहभागितायाम् आयोजिते कार्यक्रमे असौ तथाविधानं जनानां सम्पत्तिम् अवरोध्य पीडितानां उपचार कारयित्री क्षतिपूर्ति दापयित्री भरण पोषण विधानात्मिकी पीडितानां शीघ्रं चिकित्सालयं प्रापय्य उपचाराय सर्वैः सहयोग प्रदानात्मिकी च व्यवस्था विधास्यते इति अज्ञापयत। प्रज्वलनशील पदार्थस्य आक्रमणस्य घटनायां निपतितानां मध्ये द्वादशानां पीडितानां जनानां सहभागितायां सम्पन्ने तस्मिन् कार्यक्रमे प्रधानमन्त्री ओली वीर शिक्षण चिकित्सालययोः उपचारस्य प्रबन्धनं सर्वकारस्य पक्षतः पीडितानां जनानां सम्पूर्ण व्ययस्य नियमित प्रयुक्त व्ययस्य औषधस्य व्ययस्य च निर्वहणमपि उद्घोषयत। पठनेच्छुकेभ्यो निःशुल्कं पठन पाठनस्य प्रबन्धनं सर्वकारेण विधास्यते इति चर्चयन् असौ अवोचत् उचित प्रशिक्षणाय वृत्त्युपार्जनाय व्यवसाय आजीविकायै च सर्वकारः व्यवस्थां विधास्यति। प्रधानमन्त्री ओली पीडितजनेभ्यः सौविध्यपूर्णं ऋणं प्रदाय व्यवसायं कर्तुं प्रोत्साहनं विधीयते इति ज्ञापयन् प्रतिवर्षं सेप्टेम्बर मासस्य दशमं दिवसं प्रज्वलनशील पदार्थाक्रमण विरोधिनो जागरण दिवसस्य रूपेण आयोजयितुम् अग्रे वर्धनाय च आह्वयत। नेपाले कोरोना संक्रान्तानां जनानां संख्या 50,000 अतिक्रान्ता वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे प्रवक्ता प्राध्यापकः डाक्टर जागेश्वर गौतमः ह्य अतिरिक्तेषु सहस्रे शतद्वय षट्चत्वारिंशति च जनेषु संक्रमण पुष्टेः पश्चात् नेपाले संक्रान्तानां जनानां अद्यावधि समग्र संख्या 50,000 प्राप्तेति अज्ञापयत्। सम्प्रति आराष्टं 14,000 अष्टाचत्वारिंशत् च सक्रिय संक्रान्ताः जनाः वर्तन्ते इति स्वास्थ्य मन्त्रालयेन ज्ञापितं वर्तते। ह्यः काष्ठमण्डपे एव अधुनावधि सर्वाधिकं 7,495 जनेषु संक्रमणं पुष्टीभूतं वर्तते। एवमेव ललितपुरे 43, भक्तपुरे च 34 च जनेषु संक्रमणं पुष्टीभूतमस्ति। कोरोना संक्रमणात् गतदिने अतिरिक्ताः 1,818 च जनाः मुक्ताः सन्ति। गतदिने कोरोना संक्रमणेन काष्ठमण्डपस्य त्रयः चितवन कपिल वस्तु जनपदयोः प्रतिजनपदम् एकश्चेति कृत्वा 5 जनाः मृताः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन जनपदान्तरं गमने अनिवार्यतया 14 सुरक्षणावासे स्थातुं निर्णीतं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन पीसीआर परीक्षणस्य परिणामो न आगत इति व्याजेन तत्कालं आवश्यक शल्यक्रियाणां रोगिणानाम् उपचारे विलम्बं न कर्तुञ्च सर्वे चिकित्सालयाः चिकित्सकाश्च अनुरुद्धाः सन्ति। पीसीआर परीक्षणस्य प्रतीक्षायाः कारणेन रोगिणानाम् अवस्था अतिरिक्ता जटिला उपचारे समस्या च उद्भूतेति च प्रमाणितयोः सत्योः सम्बद्ध चिकित्सालयः चिकित्सकाश्च मन्त्रालयेन दण्ड्यन्ते इति प्रवक्ता डाक्टर गौतमः प्रत्यादिशत्। मध्यपुर ठिमी नगरपालिकया स्वीय चिकित्सालये कोरोना संक्रान्तानां जनानां उपचारे उपचारकाः यन्त्रमानवाः परिचालयिष्यन्ते। चिकित्सालये यन्त्रमानवानां परीक्षणं सम्पन्नमस्ति। आश्विनस्य प्रथम सप्ताहात् यन्त्र मानवान् सञ्चालने आनीय रुग्णेभ्य औषधानि भोज्य पदार्थान् च दातुम् पूर्वकार्यम् विहितम् अस्तीति नगर प्रमुख मदन सुन्दर श्रेष्ठ अज्ञापयत्। यन्त्र मानवत्रयम् सञ्चालयितुम् पूर्वकार्यम् विहितम् अस्तीति नगर प्रमुख श्रेष्ठ अज्ञापयत्। नेपाल रेडक्रस सोसाइटी संस्थया कोरोना विषाणुना संक्रान्तानाम् जनानाम् उपचाराय सहयोगार्थम् प्लाज्मा थेरापी नाम्ने रोग प्रतिरोधी रक्तांश पदार्थोपचार विधेय रक्त संकलनम् प्रारब्धमस्ति। नेपाल स्वास्थ्य अनुसन्धान परिषद अनुरोधस्य अनुसारेण विभिन्नानाम् संस्थानाम् सहकार्ये रेडक्रस संस्थया इयम् सेवा प्रारब्धेति केन्द्रीय रक्त संचार सेवायाः निर्देशक डाक्टर मनिता राजकर्णिकारः अवदत्। सर्वकारेण प्रारब्ध नियमितान्तरराष्ट्रिय राष्ट्रेभ्यः अतिरिक्तोड्डयनस्य अनुमतिम् दातुम् निर्णीतमस्ति। कोरोना संक्रमणरहितानाम् यात्रिणामेव आनयनत्वेन नियमितोड्डयनयुतेभ्यः राष्ट्रेभ्यः विमानोड्डयन संस्थाभिः अतिरिक्तोड्डयने याचिते सति अनुमतिम् प्रदातुम् निर्णीतम् अस्तीति पर्यटन मन्त्री योगेश भट्टराई अज्ञापयत्। सर्वकारेण वैकल्पिक प्रणाल्या शिक्षणस्य शैक्षिक सत्रे गणनत्वेन नूतना एतद् विक्रमादीय विद्यार्थी शिक्षण सहजीकरण निर्देशिका क्रियान्विता वर्तते। शिक्षा विज्ञान प्रविधि मन्त्रिणा गिरिराजमणि पोखरेलेन अस्यैव भाद्रस्य 29 दिवसे स्वीकृता नूतन निर्देशिका मन्त्रालयेन ह्यः सार्वजनिक कृता। कोरोना महामार्याः संकटः वर्धमानोऽस्ति इत्यतः विद्यालयानां सञ्चालनस्य असमर्थावस्थायाम् अन्य प्राकृतिक विपत्तौ च एतादृश वैकल्पिक शिक्षणाय मान्यता प्रदानत्वेन निर्देशिका एषा क्रियान्विता अस्ति। अनया सहैव वर्तमान शैक्षिक सत्रे विद्यार्थीनाम् पञ्जीकरणे तथ्यांक संकलने नैज विद्यालयैः स्थानीय स्तरैः निर्धारितस्य शुल्कस्य ग्रहणे पाठ्यभाराणाम् संकोचने मूल्यांकन विधीनाम् क्रियान्वयने च स्थानीय स्तरेभ्यः सम्बद्ध विद्यालयेभ्यश्च सहजम् सम्भूतमस्ति। सर्वकारेण आत्महत्यायाः निरोधनाय गतदिवसतः चिकित्सालयद्वये आत्महत्या नियन्त्रण सहायता सरणिः प्रारब्धा वर्तते। आत्महत्या निरोधन दिवसस्य अवसरे लगनखेलस्थिते मानसिक चिकित्सालये महाराजगंजवर्तिनी त्रिभुवन विश्वविद्यालय शिक्षण चिकित्सालये च सहायता सरणी प्रारब्धास्तीति महामारी संक्रामक रोग नियन्त्रण महाशाखाया डाक्टर फणीन्द्र प्रसाद बरालः अबोधयत्। गृहमन्त्रालयेन चीनदेशेन सह सम्पृक्त सीमबिन्दो ताप्लेजुङ जनपदस्य ओलाङचुङ गोलास्थाने भारतेन सह संयोजित सीमबिन्दो दार्चुला जनपदस्य दत्तुस्थाने च सीमनिरीक्षण केन्द्रस्य स्थापनायै स्वीकृतिः प्रदत्ता वर्तते। संघीय संसदः संसदीय श्रवण समित्या जर्मनी बेल्जियम पाकिस्तान देशानां कृते प्रस्तावितानां नेपाली राजदूतानां नामानि अनुमोदितानि सन्ति। समिते ह्यस्तनोपवेशेन प्रस्तावितानां व्यक्तीनां योग्यता क्षमतानुभव कार्ययोजनानां चिन्तनस्य च ज्ञानप्राप्तेः अनन्तरं राजदूतान् योग्यान् निश्चित्य एतेषां नामानि अनुमोदितानि सन्ति। सर्वकारेण परराष्ट्र मन्त्रालयस्य सहसचिवान् गेहेन्द्र राज भण्डारिणं तापस अधिकारिणं रामकाजी खड्गाविदं च राजदूतेषु परामृश्य संसदीय श्रवणस्य श्रवणाय समितौ एतेषां नामानि प्रेषितानि आसन्। कास्की जनपदस्य मादिग्रामपालिकायां द्वादश मेगावट मित क्षमतायाः जलविद्युत आयोजनायाः निर्माण कार्यं सम्पन्नमस्ति। मादिग्रामपालिकायाः द्वितीयवडा क्षेत्रस्य पूर्वकालिका नामार्जुङ ग्रामपालिका समितेः नामार्जुङ जल विद्युदायोजनाय निर्माणकार्यं समाप्य उत्पादिता विद्युत राष्ट्रिय प्रसारण प्रणाली योजिता अस्ति इति आयोजनाय प्रमुख शिवकृष्ण श्रेष्ठ अज्ञापयत् इति समाचाराः।